एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम्। प्रवाचक उपेन्द्र दाहालः। ऊर्जा जलस्रोत सेचन मन्त्री विराज भक्त श्रेष्ठ गतार्थिक वर्षे नेपालेन भारत बंगलादेशयोः विद्युतो निर्यातम् कृत्वा एकोनत्रिंशद् अब्जानि द्वात्रिंशत् कोटयः सप्तचत्वारिंशद् लक्ष्याणि च रूप्यकाणि अर्जितानि सन्तीति सूचितवान् वर्तते। प्रतिनिधिसभायां पूर्वेद्यो सांसदै सह प्रश्नोत्तर कार्यक्रमे मन्त्री श्रेष्ठ नेपालस्य जलविद्युत उत्पादनं वर्षाकाले अधिकं भवति, नद्या जलप्रवाह पर्याप्तमस्ति, अन्तर्व्ययस्य कृते पर्याप्त पूर्वाधारो न वर्तते इति च कारणैः भारत बंगलादेशयो विद्युत अनिवार्यतः निर्यातस्य अवस्थास्तीति असूचयत्। मन्त्री श्रेष्ठ वर्षाकाले विद्युत निर्यातस्य अवस्थायां सत्यामपि शुष्क शीतकाले उत्पादनस्य न्यूनीभवनात् भारतात् विद्युत क्रयणस्य च अवस्थास्तीति चापि अज्ञापयत्। प्रश्नोत्तर कार्यक्रमे परराष्ट्र मन्त्री शिशिर खनालः विदेशेष् विद्यमानानां नेपाली नियोगानां कृते स्वस्यैव भवनस्य निर्माणस्य कार्यं सर्वकारेण अग्रेसारितमस्तीति असूचयत्। परराष्ट्र मन्त्री खनाल विभिन्नेष् देशेष् भूमेः क्रयणानन्तरं विदेहे जटिलतायाः कारणेन भवनानां निर्माणं सम्भूतं नासीत्, इदानीं क्रमशः समस्या समाधीयमानास्तीति च उपवेशे असूचयत्। एवमेव उपवेशे संस्कृति पर्यटन नागरिक उड्डयन मन्त्री खड्गराज पौडेलः सांसदै सह प्रश्नोत्तर कार्यक्रमे नेपालस्य उड्डयन सेवायाः यूरोपीय संघेन कलंक सूच्यां स्थापनस्य विषय सर्वकारस्य उच्च प्राथमिकतायाम् अस्तीति असूचयत्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदा शिक्षा स्वास्थ्य क्षेत्रयोः समस्यानां, वैदेशिक वृत्त्युपार्जन कार्यक्रमे नागरिकै षोडव्यानां समस्यानां, अनलाइन माध्यमेन विधीयमानस्य वञ्चनस्य, सुशासनस्य च विषयेष् अन्येष् सामयिक विषयेष् च कारस्य ध्यानाकर्षणं विहितवन्तः। प्रतिनिधिसभाया ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयं पारपत्र प्रथम संशोधन विधेयकमाधृत्य विमर्शनं विधीयतामित्युक्त्वा परराष्ट्रमन्त्रिणा शिशिर खनालेन प्रस्तुतः प्रस्तावः स्वीकृतो वर्तते। एवमेव ह्यस्तनोपवेशे प्रधानमन्त्रिणो बालेन्द्र शाहस्य पक्षत विधिन्याय संसदीय विषय मन्त्री सुविता गौतमः थारू आयोगस्य सप्तमं वार्षिकं प्रतिवेदनं प्रास्तौत। प्रतिनिधिसभायाः अपरोपवेश अद्य दिवा एकवादने पुनर्वसति। प्रधानमन्त्रिणा बालेन्द्र शाहेन सह भारतस्य स्थलसेनाध्यक्षेण जनरल धीरज सेठ इत्यनेन शिष्टाचार मेलवार्ता विहितास्ति। सिम्ब प्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये ह्य प्रधानमन्त्रिणा शाहेन सह सेठ इत्यनेन शिष्टाचार मेलवार्ता विहितेति प्रधानमन्त्रिणा सचिवालयेन ज्ञापितं वर्तते। प्रधान सेनापतेः अशोक राज सिग्देलस्य औपचारिक निमन्त्रणायां सेनाध्यक्ष सेठ चतुर्दिवसात्मकाय भ्रमणाय गत रविवासरे नेपालं समागतः आसीत्। परह्यः सोमवासरे राष्ट्रपतिः रामचन्द्र पौडेलः भारतीयं स्थलसेनाध्यक्षं धीरज सेठ इत्यमुं नेपाली सेनाया मानार्थ महारथी पदस्य सम्मानचिह्नेन विभूषितवान्। पञ्चाशदुत्तर एकोनविंश ख्रीष्टवर्षात् नेपाल भारतयोर्मध्ये सेनाप्रमुखाभ्यां परस्परं मानार्थ महारथि पद प्रदानस्य विद्यमानाय परम्परायानुसारेण धीरज सेठ महारथि सम्मानेन सम्मानितो वर्तते। नेपाली कांग्रेस दलेन संविधानस्य उपलब्धिः संरक्ष्य लोकतन्त्रम् अधिकं प्रोन्नतं विधातुं संविधानस्य संशोधनस्य कृते आवश्यक प्रक्रियाम् अग्रेसारयितुं च निर्णीतं वर्तते। श्रावणमासस्य चतुर्विंशात् दिवसात् भाद्रमासस्य प्रथमं दिवसं यावत् उपविष्टेन केन्द्रीय समितेः उपवेशेन विहितानां निर्णयानां विषयान् ज्ञापयितुं सानेपावर्तिनी केन्द्रीय कार्यालये पूर्वेद्युः आयोजिते पत्रकार सम्मेलने नेपाली कांग्रेस दलस्य प्रवक्ता देवराज चालिसे संविधानस्य आधारभूत मूल्यानां संरक्षणं विधाय सामूहिक सुधारस्य कृते सर्वोच्च न्यायालयस्य अवकाश प्राप्तस्य न्यायाधीशस्य अध्यक्षतायां संविधान संशोधन परामर्शायोगं संघटयितुं याचना विहितास्तीति अज्ञापयत्। दलस्य पञ्चदशतमस्य महाधिवेशनस्य कृते सभापते गगनकुमार थापा विदस्य अध्यक्षतायां मूल व्यवस्थापन समिति संघटितास्तीति च प्रवक्ता चालिसे तदवसरे अज्ञापयत्। एवमेव उपसभापतिना विश्वप्रकाश शर्मणा राजनीतिक क्षयीकरणेन सह सम्बद्ध प्रस्ताव, महामन्त्रिणा प्रदीप पौडेलेन विधान सम्बद्ध प्रस्ताव, अपरेण महामन्त्रिणा गुरूराज घिमिरे विधेयन च संगठन सम्बद्ध प्रस्तावश्च महाधिवेशनस्य अवसरे प्रस्तुष्यन्ते इति च ज्ञापितमस्ति। पञ्चदशं महाधिवेशनम् आगामिनः आश्विन मासस्य षोडश दिवसात् एकोनविंशं दिवसं यावत् आयोजयितुम् एतत्पूर्वमेव दलेन निर्णीतमस्तीति प्रवक्ता चालिसे अज्ञापयत्। राष्ट्रियसभाया सांसदै विधायक स्तर सम्बन्धस्य समन्वयस्य अभावेन स्तरगत विधिनाम् निर्माणे समस्या दृष्टास्तीति उक्तं वर्तते। विधायन व्यवस्थापन समिते ह्य उपविष्टे उपवेशे सांसदाः संघ प्रदेश स्थानीय स्तरैः संयुक्ताधिकाराणाम् सूची अभ्यन्तरे स्थित्वा विधिनाम् निर्माणेन स्तरत्रयस्य मध्ये परामर्शनस्य अभावात् समस्या वर्धितास्तीति अवोचन्। राष्ट्रियसभाया अन्तर्गताया संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समिते उपवेशे सांसदै नीति निर्माण स्तरे समावेशिताया सिद्धान्तस्य आधारेण पर्याप्तं प्रतिनिधित्वम् अप्राप्तवद्भ्य समुदायेभ्य अवसरा प्रदातव्या इति उक्तं वर्तते। समिते हसीम प्रासादे उपविष्टे उपवेशे सांसदा एवं उक्तवन्तः।